ॐ जपा कुसुम संकासं कश्यपायं महाद्युतिं थामोरिं सर्वपापघ्नं प्रणतोऽस्मि दीपाकरं ॐ ह्रीं ह्रीं सूर्याय नमः दधिशङ्कातुषाराभं शिरोदार्णवसम्बभां नमामि सस्यनां सोमां शम्भोर्मुकुटभूषणं ॐ ऐं क्लीं सोमाय नमः धारणी गर्भसम्भुतां विद्युकान्ति सम्भाप्रभां कुमारं शक्ति हस्तं च तं मङ्गलां प्रणामाम्यहां ॐ हुं श्रीं मङ्गलाय नमः प्रियङ्गुकलिकश्यामं रूपेणा प्रतिमां भूतं सौम्यां सौम्यगुणोपेतं तं बुधं प्रणमाम्यकाम् ॐ ऐं स्त्रीं श्रीं बुधाय नमः देवानां च ऋषीणां च गुरुं कञ्चन सन्निपां बुधिभूतां त्रिलोकेशां तं नमामि बृहस्पतिम् ॐ ऐं क्लीं हुं बृहस्पतये नमः हिमकुन्दं ऋणालाभं द्वैत्यानां परमां गुरुं सर्वशास्त्रप्रवक्तारं भार्गवां प्रणमाम्यहाम् ॐ ह्रीं श्रीं शुक्राय नमः नीलाम्बुजसम्भावासं रविपुत्रं यमाग्रजं छायामार्तण्डसम्भूतं तं नमामि शनिश्चराम् ॐ ऐं ह्रीं श्रीं शनिश्चराय नमः अर्धकायां महावीर्यं चन्द्रादित्यभिमार्दनं सिंहिका गर्भसम्भूतं तं राहुं प्रणमाम्यहाम् ॐ ऐं ह्रीं राहवे नमः फलाश्च पुष्पसङ्कषं तरकग्रहमस्तकं रुद्रां रुद्रात्मकं घोरं तं केतु प्रणमाम्यहम् ॐ ह्रीं ऐं केतवे नमः ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानु शशि भूमिसुतो भूदश्च गुरुश्च शुक्र शनि राहु केतवः सर्वे ग्रहा सन्ति करा भवन्तु ॐ नवग्रहेभ्यो नमः